एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण सुनसरी सिराहा जनपदयोः प्रदर्शनस्य क्रमे मृतकान् जनान् हुतात्मानः उद्घोष्टुम् निर्णीतमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन प्रदर्शनस्य क्रमे मृतं सुनसरी जनपदस्य ओमप्रकाश मेहता इत्यमुम्, जयप्रकाश मेहता इत्यमुम्, रविन्द्र कुमार मेहता इत्यमुम्, सिराहा जनपदस्य गणेश कुमार यादवञ्च हुतात्मानः उद्घोष्टुम् निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षा खेलकूर्द मन्त्री च सस्मित पोखरेलः अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन नेपाले उत्पादितायाः विद्युतो माध्यमेन सञ्चाल्यमानानां रोगीवाहकयानानां शववाहकयानानां च कृते निर्धारिते स्वच्छता पूर्वाधार निवेश शुल्के मूल्याभिवृद्धिकरे च सौविध्यं प्रदाय पूर्णतः निःशुल्कं विधातुं निर्णीतं वर्तते। मन्त्रिपरिषदः उपवेशेन वैदेशिक वृत्त्युपार्जन समितेः कार्यकारी निर्देशक पदे बारा जनपदस्य निर्मल कुमार उप्रेति इत्यमुम् नियोक्तुम् निर्णीतमस्तीति मन्त्री पोखरेलः असूचयत्। उपवेशेन पूर्व महालेखा परीक्षकस्य टंकमणि शर्मा दंगालस्य संयोजकत्वे संघटितया समित्या निर्मितं एनसेल इति दूरसंचार सम्बद्धाया संस्थायाः अंशक्रयण विक्रयण सम्बद्धम् अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् अध्ययनानुसन्धान प्रतिवेदनं सार्वजनिकर्तुं निर्णीतमस्तीति मन्त्री पोखरेलः असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन पोर्चुगल सर्वकाराय काष्ठमण्डपे कन्सुलर इति वैदेशिक सेवा सम्बद्धस्य कार्यालयस्य स्थापनायै अनुमतिं प्रदातुं निर्णीतमस्तीति प्रवक्ता मन्त्री पोखरेलः असूचयत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदै मार्गस्य दैनिकोपभोग्य वस्तूनां कृत्रिमाभावस्य तास्कर्य नियन्त्रणस्य विकास निर्माणस्य च कार्येषु जायमानस्य विलम्बनस्य अन्त्यस्य आपूर्तेः व्यवस्थायाः सुशासनस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते। उपवेशे सांसदैः आपणे दृष्टस्य पाचनेन्धनस्य अभावस्य खाद्यान्नानां फलपुष्प व्यञ्जनानां कृत्रिमाभावस्य तास्कर्यस्य नियन्त्रणाय प्रभावकारिणः आपणस्य अनुगमनस्य च याचना विहिता वर्तते। उपवेशे प्रतिपक्षदलानां सांसदाः प्रधानमन्त्रिणः सभायाम् उपस्थित्यै दीर्घकालात् याचनायां विहितायां सत्यमपि प्रधानमन्त्री सदने उपस्थितो नास्ति औपचारिक वेशश्च न धार्यते इत्युक्त्वा वेदनां प्रास्तुवन्। अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले सर्वकारीय प्रपत्राणां वैद्युताङ्कनयुत सम्पादनस्य सुरक्षणस्य च आवश्यकतां प्रदर्शयति। प्रतिनिधिसभायाः सार्वजनिक लेखा समितेः ह्यस्तनोपवेशे गतवर्षस्य भाद्रमासस्य त्रयोविंश चतुर्विंश दिवसयोः अग्निदाहस्य कारणेन एकोनाशीत्युत्तरैकशत कार्यालयानां महालेखा परीक्षक कार्यालयेन लेखा परीक्षणं कर्तुं शक्तं नास्तीति विषये विमर्शनस्य क्रमे अर्थमन्त्री डाक्टर वाग्ले प्रथमं सर्वकारीय प्रपत्राणां वैद्युताङ्कनयुतानि सम्पाद्य सुरक्षितरूपेण स्थापनीयानि इति बलं दत्तवान्। निर्वाचनायोगस्य प्रमुखायुक्तेन मानबहादुर कार्किणा सहितयोः आयुक्तयोः नेपाल प्रहरिणा महानिरीक्षकस्य दानबहादुर कार्की इत्यस्य च मध्ये निर्वाचनस्य सुरक्षायाश्च विविधेषु विषयेषु विमृष्टं वर्तते। कान्तिपथवर्तिनी आयोगस्य कार्यालये सम्भूते मेलने आगामि निर्वाचनं स्वच्छे निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे सम्पादयितुम् आवश्यक सुरक्षा व्यवस्थापनस्य निर्वाचनस्य समये नेपाल प्रहरिणा भूमिकायाश्च विषयेषु विमृष्टं वर्तते। राष्ट्रियसभाया विकासार्थिक विषय सुशासन समितेः ह्यस्तनोपवेशे विज्ञैः देशस्य समृद्धये अत्याधुनिक वैद्युतार्थतन्त्रस्य अवस्थायाः सम्भावनायाश्च विषयेषु अवधारणापत्रं प्रस्तुतमस्ति। उपवेशे सूचना प्रविधि विज्ञ रामकान्त पाण्डेय वैद्युत सुशासनायोगस्य पूर्व कार्यकार्यधिकृतः दीपेश विष्टः च अत्याधुनिक वैद्युतार्थतन्त्रस्य विषयेषु स्वकीयां धारणां व्यक्तवन्तौ। रौतड जनपदस्य देवाही गोनाही नगरपालिकाया द्वितीयवडा क्षेत्रस्य लक्ष्मीनिया स्थानवर्तिन्यां लालवकैया नद्यां स्नानस्य क्रमे तिस्रो बालबालिका निमज्ज विलुप्ता वर्तन्ते। विलुप्तेषु लक्ष्मीनिया स्थानस्य शेख अमरे आलम इत्यस्य दशवर्षीय पुत्र मोहम्मद रमतुल्लाह, शेख खुरौशेद इत्यस्य दशवर्षीय पुत्री रोशन खातुन, शेख ओशी अख्तर इत्यस्य दशवर्षीया पुत्री सबनम खातुन च वर्तन्ते इति प्रेरणा ज्ञापितमस्ति। एते जना यो दिवा स्नानस्य क्रमे निमज्ज विलुप्ता वर्तन्ते। विलुप्तानां जनानां अनुसन्धान कार्यं जायमानमस्ति इति प्रेरणा ज्ञापितम् अस्ति। वरिष्ठ साहित्यकार भाषाविच डाक्टर राजेन्द्र विमल 79 वर्षाणां वयसि दिवंगतोऽस्ति। दीर्घकालात् मधुमेह रोगेण उक्त उच्च रक्तचापेन च ग्रस्तस्य डाक्टर विमल इत्यस्य सोमवासरस्य रात्रौ जनकपुरधामवर्तिनी प्रादेशिक चिकित्सालये निधनं सम्भूतमस्ति। 29-2000 विक्रम वर्षात् त्रिभुवन विश्वविद्यालये नेपाली विषयस्य प्राध्यापने आबद्धेन डाक्टर विमल इत्यनेन दीर्घकालं यावत् शिक्षणे अनुसन्धाने साहित्य सर्जने च जीवनं समर्पितमासीत्। साहित्यस्य भाषायाश्च क्षेत्रेषु विहितस्य योगदानस्य कारणेन डाक्टर विमलः विभिन्नैः पुरस्कारैः सम्मानैश्च सम्मानितः आसीत्। दिवंगतस्य डाक्टर विमल इत्यस्य ह्य एव जनकपुरे राष्ट्रिय सम्मानेन दाह संस्कारः विहितो वर्तते। म्याग्दी जनपदस्य अन्नपूर्ण ग्रामपालिकाया षष्ठवडा क्षेत्रस्य पोखरे बगर स्थाने घारखोला जल विद्युत आयोजनाया विद्युत गृहे दुरापन्ने भूस्खलने निपत्य एको जना मृतोऽस्ति। विद्युत गृहे कार्यरतः एक प्राविधिक आतोऽस्ति। एकस्य जनस्य च उद्धार विहितो वर्तते। शिक्षा खेल कूर्द मन्त्रिणा सस्मित पोखरेलेन समावेशी शिक्षाया सञ्चालनस्य व्यवस्थापनस्य च विषयेषु सम्बद्ध पक्षै सह विमृष्टम् अस्ति। सिंहप्रसाद वर्तिनी शिक्षा खेलकूद मन्त्रालय ह्य आयोजिते विमर्शन कार्यक्रमे सहभागिभिः विज्ञेरि जनै अपाङ्गता युतानां शिक्षकाणां वृत्तिगताधिकाराणां सेवा सौविध्यस्य विद्यालयेषु अधिकार प्राप्ते समावेशी शिक्षायाश्च प्रभावकारिणे क्रियान्वयनाय आवश्यक व्यवस्था विधेयति बलं दत्तम् आसीत् इति समाचाराः।